श्री गुरुभ्यो नमः हरिः ॐ ॐ जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः स नः परषदधि दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टां दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न उर्वी भवातोकायतनया यशम्योः विश्वानि नो दुर्गः जातवेदस्यं धुन्ननावा दुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यपिता तनूना प्रतनाजितं सहमानमुग्रमग्निगुम्भुवेम परमात्सधस्तात् स नः परषदधि दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमीढ्यो अध्वरेषु सनाच्च होतानव्यश्च सत्सी स्वाञ्च अग्ने तनुवं पिप्रय स्वास्मभ्यं च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमभिसंवसा नो वैष्णवीं लोक इहमादयन्ता ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः